सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्तिः। ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। श्रीगुरुभ्यो नमः, हरिः ओम्।
धन्यवादः भगिनी।
धन्यवादः महोदय।
सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र सप्तसु विभक्तिषु पाठः, तत्र हलन्तशब्दानाम्। अस्मिन् विषये तत्र पाठस्य आरम्भमपि कृतवन्तः, किन्तु तत्र द्विसप्ताह पूर्वम् एतद् वयं कृतवन्तः इति कृत्वा तत्र पुनरेकवारं तमेव पाठम् एकवारं पठित्वा अग्रे सरामः। अस्तु तर्हि तत्र शुभदा भगिनी, नमस्कारः। अस्तु,
नमस्कारः महोदय।
अस्तु, तत्र श्रीप्रिया भगिनी आरम्भं करोति वा भगिनि?
न कम्पितुम् अर्हति, तदेव खलु। अनन्तशब्दाः सप्तसु विभक्तिषु एतां कथाम् उच्चैः पठत अवगच्छत च। कस्मिंश्चित् राज्ये कश्चन राजा आसीत्। सः नीतिमान्, शास्त्रविद्, धार्मिकश्च आसीत्। तस्य यशः सर्वत्र प्रसृतम् आसीत्। तस्य कश्चन मन्त्री अपि आसीत्। सः विद्वान्, विवेकी, श्रद्धावान् च आसीत्। ज्ञानिनः तस्य उपदेशम् अनुसृत्य राजा राज्यं पालयति स्म। तस्य प्रजाजनाः गुणिनः, धर्मनिष्ठाः, कर्मशूराश्च आसन्। अग्रे अपि पठामि।
ज्ञानिनः तस्य उपदेशम् अनुसृत्य राजा राज्यं पालयति स्म। तस्य प्रजाजनाः गुणिनः, धर्मनिष्ठाः, कर्मशूरश्च आसन्। कृषकाः, वणिजः, विषजः, शिल्पिनः, कुविन्दाः, चर्मकाराः सर्वेपि धर्मानुसारेण निजकर्माणि निर्व्याजं निर्वहन्ति स्म। अत एव सर्वसम्पदा अनुगृहीतम् आसीत् तत् राज्यं। सरितः, सरांसि च जलपूर्णानि भवन्ति स्म। फलपूर्णेषु शाकिषु पक्षिणः महत्या मुदा विहरन्ति स्म। सर्वदिशः अपि जनाः तत् राज्यम् आगच्छन्ति स्म। ते तत्र रम्याणि भवनानि निर्माय तृप्तमनसा निवसन्ति स्म।
अस्तु, धन्यवादः भगिनि। अस्तु, इदानीं तत्र प्रथम परिच्छेदः पठितः, सः एव तमेव परिच्छेदं पुनरेकवारं पङ्क्तिशः पठामः। अस्तु तर्हि तत्र लक्ष्मी भगिनी, तत्र आरम्भतया किं तत्र वाक्यत्रयं स्वीकृत्य वदति वा भगिनि?
आं महोदय। कस्मिंश्चित् राज्ये कश्चन राजा आसीत्, तदेव। कस्मिंश्चित् राज्ये कश्चन राजा आसीत्,
तत्र आसीत् क्रियापदं।
कस्मिन् योगचित् कस्मिंश्चित्,
कस्मिंश्चित्, कस्मिंश्चित्,
कस्य राज्ये कस्मिंश्चित् राज्ये,
तत्र राज्ये इति सप्तमी, अतः कस्मिन् योगः,
कस्मिन् योगः चित्
अपि राजा,
सः राजा आसीत्।
योगः राजा, कः योगन, कः योगः चन, अतः कश्चन,
कश्चन राजा, कश्चन राजा आसीत्।
सः
नीतिमान्, शास्त्रविद्, धार्मिकश्च आसीत्।
तत्र नीतिमान् इति,
नीतिमान् नकारान्तः, नकारान्तपुल्लिङ्गः नीतिमान् नीतिमत् इति
नकारान्त इति नास्ति, पुल्लिङ्गे तादृशम् अस्ति किन्तु तत्र प्रातिपदिकं
भवत् शब्दवत्
तत्र नीतिमत् इति प्रातिपदिकं तु नीतिमत्, नीतिमत् इत्युक्ते यस्य अथवा यस्मिन् नीतिः अस्ति सः नीतिमान्.
शास्त्रविद् शास्त्रविद्
शास्त्रं जानाति
शास्त्रं जानाति शास्त्रविद् प्रथमाविभक्ति
तत्र शास्त्रविद् शास्त्रविदौ शास्त्रविदः
शास्त्रविदः
सुहृति वा
तस्य यशः सर्वत्र प्रसृतम् आसीत्
तत्र किं प्रसृतम् आसीत्
यशः प्रसृतम् आसीत्
कस्य
कस्य राज्ञः राज्ञः यशः
समीचीनं भगिनि कश्चन राजा यः आसीत् तस्य राज्ञः यशः सर्वत्र प्रसृतम्
आसीत्
समीचीनं भगिनि अन्यत् वाक्यं
तस्य राज्ञः कश्चन मन्त्री मन्त्री आसीत्
तस्य राज्ञः कश्चन मन्त्री
राज्ञः राज्ञः षष्ठी
समीचीनं भगिनि तस्य राज्ञः
राज्ञः कश्चन मन्त्री आसीत् कश्चन
सः अपि आसीत्
सः योगजन कश्चन
मन्त्री इति प्रातिपदिकं किं तत्र
मन्त्रिन् मन्त्रिन् प्रातिपदिकं
समीचीनं
मन्त्री मन्त्रिणौ मन्त्रिणः
मन्त्रिणः समीचीनं भगिनि अस्तु अस्तु अग्रे गीताञ्जलि भगिनि
आं महोदय सः विद्वान् विवेकी श्रद्धावान् च आसीत्
कः
कः कः सः राजा
न
अत्र तु मन्त्री
पूर्वं राज्ञः विवरणं दत्तम् इदानीं कस्य विवरणं दत्तमस्ति
मन्त्री इत्युक्ते दीर्घ एक मन्त्रीन्
मन्त्रीन् मन्त्रिणः समीचीनं भगिनि मन्त्रिणः विवरणं दत्तम् अस्ति मन्त्री कीदृशः अस्ति सः
मन्त्रिणः कीदृशः अस्ति
मन्त्री कीदृशः अस्ति
मन्त्री कीदृशः अस्ति मन्त्री विद्वान् अस्ति विवेकी अस्ति अपि च श्रद्धावान् अपि अस्ति आसीत् इत्युक्ते भूतकालात्
तत्र श्रद्धा कस्मिन् विषये आसीत् तस्य मन्त्रिणः
श्रद्धा राज्ञः विषये
राजा अस्ति तस्य सप्तमी किम् अस्ति
राज्ञे वा
राज्ञे वा राज्ञी वा
राज्ञी मन्ये महोदय
राज्ञी राज्ञी इति मन्ये भगिनि राज्ञः राज्ञी इति मन्ये
राज्ञी तस्य श्रद्धा आसीत् इत्युक्ते मन्त्रिणः श्रद्धा राज्ञी आसीत्
समीचीनं भगिनि अपि सः विवेकी इति प्रातिपदिकं किं
विवेकी तु विवेकिन्
विवेकिन् समीचीनं भगिनि तत्र इनि प्रत्यय इति वदामः विवेकिन्
अपि च सः विद्वान् अपि आसीत्
समीचीनं भगिनि अतः सः मन्त्री तु उत्तममन्त्री अस्ति खलु
उत्तममन्त्री एव
एतादृशमन्त्री विरलतया लभ्यते खलु
तदनन्तरं ज्ञानिनः तस्य उपदेशम् अनुसृत्य राजा राज्यं पालयति स्म इत्युक्ते ज्ञानिनः इत्युक्ते तस्य इत्युक्ते मन्त्रिणः ज्ञानिनः मन्त्रिणः
तस्य ज्ञानिनः मन्त्रिणः
ज्ञानिनः मन्त्रिणः उपदेशम् अनुसृत्य किम् अनुसृत्य उपदेशम् अनुसृत्य इत्युक्ते यथा मन्त्री उक्तवान् तथा राजा अपि स्वीकृतवान्।
राजा करोति स्म यथा मन्त्र, मन्त्री यथा वदति तथा सः राजा करोति स्म, तत्र राज्यं पालयति स्म अथवा राज्यस्य पालनं करोति स्म।
तथैव करोति स्म,
तथैव करोति स्म। समीचीनं भगिनि,
राज्यं पालयति स्म। तस्य प्रजाजनाः गुणिनः धर्मनिष्ठा कर्मशूराश्च आसन्।
इदानीं तस्य इत्युक्ते कस्य?
न केवल राज्ञः मन्त्री, किन्तु राज्ञः प्रजाजनाः अपि, इत्युक्ते सर्वे जनाः ये राज्ये,
राज्ये ये जनाः प्रजाजनाः सन्ति, किन्तु तत्र तस्य इत्युक्ते तस्य राज्ञः प्रजाजनाः एव खलु?
राज्ञः
प्रजाजनाः, मन्त्रिणः प्रजाजनाः इति न भवति, केवलं राज्ञः एव प्रजाजनाः भवन्ति।
तदेव राज्ञः प्रजाजनाः अपि गुणिनः धर्मनिष्ठा कर्मशूरा च आसन्, इत्युक्ते ते अपि उत्तमाः जनाः सन्ति,
आसन् गुणिनः, गुणिनः गुणिनः
बहुवचनरूपं, धर्मनिष्ठाः अपि बहुवचन, कर्मशूराः अपि बहुवचनरूपम् अस्ति।
समीचीनं, तत्र धर्मनिष्ठाः, तत्र तेषां निष्ठा कस्मिन् विषये आसीत्?
तेषां निष्ठा धर्म,
धर्मे आसीत,
धर्मे आसीत्,
धर्मे आसीत्, तेषां निष्ठा धर्मकार्येषु अथवा धर्मे अथवा धर्माचरणे आसीत्। अपि कर्मशूराः, कर्मेषु ते शूराः आसन्। अपि गुणिनः गुणयुक्ताः, ते सर्वे गुणयुक्ताः आसन्। समीचीनं भगिनि, अग्रिमं वाक्यमपि।
तदनन्तरं कृषकाः, वणिजः, धिषजः, शिल्पिनः, कुविन्दाः, चर्मकाराः सर्वे अपि धर्मानुसारेण निजकर्माणि, निर्व्याजं भवन्ति स्म, इत्युक्ते प्रजाजनाः तु उत्तमाः, किन्तु ये ये कर्म कारिणः आसन्, यथा कृषकाः, वणिजः, निषजः, शिल्पिनः, कुविन्दाः, इत्युक्ते
तन्तुवायः, तन्तुवायः इति मन्ये खलु,
तन्तुवायः
वा, तन्तुवायाः, समीचीनं भगिनि, कुविन्दाः तन्तुवायः इति मन्ये,
तन्तुवायाः, चर्मकाराः सर्वे अपि धर्म अनुसारेण एव निज, इत्युक्ते व्यवसायं,
तत्र कृषकः व्यवसायं करोति, कृषिकार्यं करोति,
वणिजः तु
वाणिज्यं करोति,
अपि च धिषजः तु किम्, आरोग्यं, सर्वे आरोग्यं,
रोगाणां, रोगिणां, पालनं करोति, साहाय्यं करोति,
तस्य कृते शिल्पिनः अपि सुन्दराणि
विग्रहाणि, तत्र विग्रह, विग्रहं, रैट्, विग्रहम् इति मन्ये, विग्रहं, विग्रहाणि,
रचयन्ति स्म, कुविन्दाः तु तन्तुवायाः विषये,
तत्र सुन्दराणि वस्त्राणि निर्मान्ति स्म,
किमपि वस्त्रे वस्त्रैः यत्किमपि भवितुमर्हति, ते सर्वे कुर्वन्ति।
अस्तु, चर्मकाराः तत्र
चर्मकाराः तु इत्युक्ते किं
पादत्राणं पादत्राणम्
अपि च महोदय शस्त्र
शस्त्रे अपि सत्यं भगिनि सत्यं समीचीनं
पालनस्य कृते किमपि
तदपि अस्ति अपि तत्र सङ्गीतमृदङ्गे अपि तत्र अपि तस्मिन् विषये अपि तत्र चर्मकाराः तेषां चर्मकाराणां तत्र कार्यम् अस्ति इति मन्ये अतः तत्र यत् कार्यं करणीयं तदेव कार्यं ते कुर्वन्ति स्म
किन्तु धर्मानुसारेण कुर्वन्ति
धर्मानुसारेण कुर्वन्ति स्म
कुटिलः बुद्धिः
कुटिलेन तत्र कुटिलः तत्र कुटिला बुद्धिः बुद्धिः स्त्रीलिङ्गे अस्ति अतः कुटिलया बुद्ध्या
कुटिलया बुद्ध्या
न कुर्वन्ति न कार्यं कुर्वन्ति स्म समीचीनं भगिनि
धर्मपालनं करोति स्म सर्वे धर्मपालनं कुर्वन्ति स्म
समीचीनं ते निजकर्माणि इति तत् विवृत तत्र विवरणं कृतवती अपि निर्व्याजम् इत्युक्ते तत्र कुटिलेन विना इति
कुटिलेन विना स्वस्य स्वस्य प्रतिदिनस्य कार्यं यत् यत्किमपि भवति तत् कुटिलेन विना कुर्वन्ति स्म
समीचीनम् अपि निर्वहन्ति स्म इत्युक्ते तत्र समाजे प्रत्येकसदस्यस्य कार्यं भवति अतः तत्र यदि प्रत्येकः तस्य कार्यं सम्यक्तया करोति तदा समाजस्य समृद्धिः भवति अतः समाजः वर्धते इति कृत्वा ते सर्वे तेषां निजकर्माणि निर्व्याजं धर्मानुसारेण निर्वहन्ति तत्र निर्वहन्ति स्म समीचीनं भगिनि धन्यवादः समीचीनं भगिनि अस्तु सुजाता भगिनी नमस्कारः
नमस्कारः महोदय क्षम्यतां विलम्बेन
जानाति खलु तत्र पेज् 32 इति अग्रे शुभला भगिनी अग्रे किञ्चित् पठति वा भगिनि
अग्रे द्वितीयपरिच्छेदः महोदय
सुजाता भगिनी इदानीं मास्तु किन्तु शुभदा भगिनी पठति तदनन्तरं भवती पठतु
महोदय
अत एव सर्वसम्पदा अनुगृहीतम् आसीत् तत् राज्यम् अतः सर्वरूपेण समृद्धः आसीत् तत् राज्यम् इति
तत्र राज्ये सर्वसम्पद् तत्र सम्पदाः आसन् तत्र अथवा तत्र राज्यं सर्वसम्पदा अनुगृहीतम् अथवा सर्वसम्पदा युक्तम् आसीत् तद् राज्यं किमर्थं तादृशी परिस्थितिः आसीत् तस्मिन् राज्ये
यतोहि प्रजाननाः गुणिनः धर्मनिष्ठाः कर्मशूराः च आसन्
अपि च अतः
सर्वे धर्मानुसारेण निजकर्माणि निर्व्याजं निर्वहन्ति स्म अतः सर्वं राज्यं सम्पदायुक्तम्
आसीत् इति आसीत् अथवा इति अभवत् समीचीनं अग्रे
सरितः सरांसि च जलपूर्णानि भवन्ति स्म सरितः इत्युक्ते सरित् इति सकारान्त स्त्रीलिङ्गशब्दः अस्ति तस्य बहु प्रथमाविभक्ति बहुवचनम् अस्ति सरित् सरितौ सरितः इति सरितः सरांसि इत्युक्ते सरस् इति नपुंसकलिङ्गशब्दः अस्ति इति सरः सरसि सरांसि अस्तु सरांसि इति प्रथमाविभक्ति बहुवचने एव सरितः सरांसि च जलेन पूर्णाः भवन्ति स्म तत्र
सरांसि जलपूर्णानि भवन्ति स्म. इदानीं केवलं सरितः आसीत् चेत् किं वदामः?
जलपूर्णाः.
हा, जलपूर्णाः भवन्ति स्म. समीचीनं भगिनि. हा, पूर्ण जलपूर्णा इति स्त्रीलिङ्गे.
फलपूर्णेषु शाखिषु फलपूर्णेषु शाखिषु पक्षिणः महत्या मुदा विहरन्ति स्म. फलपूर्णेषु शाखिषु, शाखिषु इत्युक्ते शाखिन् इति नकारान्त, शाखिन् इति नकारान्तपुल्लिङ्गशब्दः, गुणिन्वन् तस्य सप्तमी विभक्ति बहुवचने शाखिषु. कीदृशं शाखं, शाखी इत्युक्ते फलपूर्णेषु, फलपूर्णं शाखी, क्षम्यतां, फलपूर्णः शाखी, फलपूर्णाः गुणिगुणिनौ गुणिनः शाखिनः, फलपूर्णाः शाखिनः आसीत्. तेषाम् उपरि पक्षिणः महत्या मुदा विहरन्ति स्म. महती मुदा, महती मुदा इत्युक्ते प्रातिपदिकं किं महोदय?
मुद् इति चिन्तयामि भगिनि. महिति महत्, अतः तत्र महती मुद् इति मन्ये.
मुद् इत्युक्ते स्त्रीलिङ्गे वा?
तकार, तकारान्त स्त्रीलिङ्गपदं, सुहृद् पदम् इव रूपं. तत्र सुहृदा इति भवति खलु स्त्रीलिङ्गे, तत्र पुल्लिङ्गे तृतीया विभक्ति, तादृश मुदा इति तत्र मुद् इति मन्ये.
अस्तु, मुदा इति, महत्या मुदा, महती मुद् इति, अतः महत्या मुदा तृतीया विभक्ति एकवचने. पक्षिणः इति, पक्षिन् इति शब्दस्य गुणीवत् पक्षिणः प्रथमा विभक्ति बहुवचने भवति. पक्षिणः षकार, मूर्धन्यषकारः अस्ति, अतः णत्वम् अपि भवति. अतः फलपूर्णेषु शाखिषु पक्षिणः महत्या मुदा विहरन्ति स्म. बहु सन्तोषेण सर्वे पक्षिणः
शाखिषु, तत्र वृक्षेषु, तत्र इतः ततः तत्र डयन्ति स्म.
अग्रे पठामि वा?
पठतु भगिनि.
सर्वदिशः अपि जनाः तत् राज्यम् आगच्छन्ति स्म. सर्वदिशः इत्युक्ते दिश्, दिक् इति शब्द,
दिक् इति, समीचीनं,
दिक् इति शब्दस्य,
दिक् इति तत्र प्रथमा विभक्ति दिक् इति अस्ति, किन्तु तत्र प्रातिपदिकम् इत्युक्ते किं भवति?
दिश् इति.
हा, यतोहि वयं जानीमः तत्र प्रातिपदिकस्य अन्तिमवर्णः केवलं तत्र हलन्तशब्दानां बहुवचनरूपं दृष्ट्वा एव वक्तुं शक्नुमः. अतः तत्र दिक् दिशौ दिशः, अतः शकारान्तप्रातिपदिकम् इति,
शकारान्तप्रातिपदिकं दिश् इति. तस्य सर्वदिशः इत्युक्ते पञ्चमी विभक्ति भवति, पञ्चमी विभक्ति एकवचने. क्षम्यताम्, सर्व इति शब्दस्य पञ्चमी विभक्ति स्त्रीलिङ्गे किं भवति?
हा, न स्मरामि, स्मरति वा? समीचीनप्रश्नः भगिनि. तत्र पुल्लिङ्गे अस्ति वा भगिनि? तत्र
पुल्लिङ्गे नपुंसकलिङ्गे च, स्त्रीलिङ्गे सर्वस्याः,
सर्वस्याः. किन्तु तत्र इदानीं तत्र दिशः,
सर्वस्याः दिशः,
दिशः,
सर्वस्याः दिशः अपि जनाः तत् राज्यम् आगच्छन्ति स्म. यतोहि तत् राज्यं बहु समृद्धम् आसीत्.
तत्र जनाः तत् राज्यम् आगच्छन्ति स्म, कुतः आगच्छन्ति स्म इति प्रश्ने, तत्र प्रश्ने सति तत्र सर्वदिशः,
सर्वदिशः
अपि, तत्र अपि आगच्छन्ति स्म इत्युक्ते तत्र अपि इति किमर्थम्?
सर्वदिशः अपि जनाः, बहिः ये जनाः सन्ति तत् राज्ये, राज्यस्य जनाः तु गुणिनः, अपि च बहु सन्तुष्टः आसीत्, परन्तु जनाः ये तस्मिन् राज्ये नासीत् ते जनाः अपि अपरं राज्यात् अपि सर्वदिशः
अपरात् राज्यात् अपि तत्र आगन्तुम् इच्छन्ति स्म, किन्तु केवलं तत्र अस्तु एतस्य राज्यस्य जनाः आगच्छन्ति अन्येषां जनाः न आगच्छन्ति इति वार्ता नास्ति. यत्किमपि राज्यं पश्यतु तस्मात् राज्यात् जनाः अत्र आगच्छन्ति स्म इति. अतः तत्र सर्वदिशः अपि तत्र न को तत्र न कापि दिशा तत्र दिक् अस्ति यस्याः यस्याः दिशः जनाः न आगच्छन्ति स्म इति खलु. अस्तु समीचीनम्. अग्रे
ते तत्र रम्याणि भवनानि निर्माय तृप्तमनसा निवसन्ति स्म. ते सर्वदिशः जनाः आगच्छन्ति स्म, अपि च रम्याणि भवनानि निर्माणं कृत्वा तृप्तमनसा तृप्त्या मनः
तृप्तमनः इति तृप्त प्रायशः तत्र तृप्तमनः इति पुनः तत्र नपुंसकलिङ्गे एव अस्ति, यतोहि तत्र एतत्तु बहुव्रीहि समासः नास्ति, तत्र कर्मधारय वा इति. अतः तत्र कीदृशं मनः तृप्तं मनः इति
तृप्तेन मनसा इति वक्तुं शक्यते
न तृप्तेन
तृप्त्या तृप्तिः स्त्रीलिङ्गे
तृप्तिः स्त्रीलिङ्गे अस्ति अतः
तृप्त इति तृप्तं मनः
तृप्तम् अस्तु प्रायशः तत्र मनः मम तृप्तः तृप्तं मनः तृप्तिः इति भिन्नं तृप्तिः इति भिन्नम् अस्ति तत्र अस्तु
तृप्तः मनः इत्युक्ते तृप्तेन मनसा
तृप्तः इति न तृप्तः इति न भवति भगिनि, यतोहि तत्र मनः इति नपुंसकलिङ्गपदम् अस्ति.
आं महोदय, अतः तृप्तं मनः
इति
तृप्तं मनः अतः तृप्तेन मनसा
इति स्वीकुर्मः
करोमि चेत्
अस्तु. इदानीं तत्र वाक्यद्वयमस्ति खलु, तत्र सर्वदेशः अपि जनाः तत्र तत् राज्यम् आगच्छन्ति स्म, ते तत्र रम्याणि भवनानि निर्माय तृप्तमनसा निवसन्ति स्म. इदानीं तत्र योजनं कृत्वा एकमेव वाक्यं वदतु तत्र आगत्य इति उपयुज्य.
सर्वदिशः अपि जनाः तत् राज्यम् आगत्य रम्याणि भवनानि निर्माय तृप्तमनसा निवसन्ति स्म
समीचीनम्. अतः तत्र इदानीं तत्र समान कर्तृपदम् अस्ति खलु ते इति एव ते जनाः इति, अतः तत्र लेबन्तं कर्तुं शक्नुमः. समीचीनं, धन्यवादः भगिनि. अस्तु मधु महोदय, नमस्कारः.
नमस्कारः महोदय.
इदानीं तत्र अस्तु अग्रे उषा भगिनी पठति वा परिच्छेदः. तत्र भगिनी एतत् कुर्मः, तत्र प्रायशः तत्र वाक्यत्रयं पठित्वा तत्र उपविष्टवान् इति तावत् पर्यन्तं पठित्वा तदनन्तरं वाक्यं वदति वा किञ्चित्.
आम् महोदय. अथ कदाचित् शत्रुः युद्धार्थम् आगतवान्, अकस्मात् प्रवृत्ति युद्धे अयं राजा पराजितः अभवत्. सः मन्त्रिणा साकं कथञ्चित् नगरं परित्यज्य किञ्चन वनं प्राप्तवान्. कण्टकयुक्तेषु पतिषु अश्मसु वा पादरक्षां विना सञ्चलितुम् अक्षमः सः क्षुधया पिपासया च पीडितः कस्यचित् सरसः तीरे उपविष्टवान्.
अतः इदानीं तत्र प्रथम तत्र प्राप्तवान् इति तावत् पर्यन्तं किञ्चित्.
अतः कदाचित् शत्रुः युद्धार्थम् आगतवान्. कः आगतवान्?
शत्रुः आगतवान्. युद्धार्थम् इति स्थाने अन्यत् किं स्थापयितुं शक्नुमः?
युद्धाय.
हा, युद्धाय अथवा युद्धं कर्तुं
आगतवान्.
हा,
अकस्मात् प्रवृत्ते युद्धे अयं राजा पराजितः अभवत्. पराजितः इत्युक्ते विजयं न प्राप्तवान्.
हा, अकस्मात् इत्युक्ते
सडन्लि इति महोदय.
अतः पूर्व तस्य युद्धस्य पूर्वज्ञानं नासीत् खलु, तत्र युद्धं भवति अस्तु, अतः तत्र युद्धस्य कृते किमपि तत्र पूर्वकार्यं तत्र करणीयम् इति तत्र ज्ञानं नासीत् खलु. अकस्मात् एतत् युद्धं तत्र आपतितम् इति वदामः. आपतितम् इत्युक्ते तत् आगतं. वयं तत्र तस्य अन्वेषणं कृत्वा कुत्र अस्ति, युद्धं कुत्र अस्ति इति तत्र तस्य अन्वेषणं कृत्वा न गतवन्तः. युद्धं स्वतः आगतम् इति कृत्वा तत्र आपतितम् इति
आपतितं
युद्ध
राजा पराजितः अभवत्.
हा, अतः तत्र अस्मिन् तत्र प्रवृत्ते युद्धे अयं राजा पराजितः अभवत्.
सः मन्त्रिणा साकं कथञ्चित् नगरं परित्यज्य किञ्चन वनं प्राप्तवान्. तृतीयविभक्ति अस्ति. मन्त्रिणा सह कथञ्चित्
साकम् इत्युक्ते सः इति अर्थः. मन्त्रिणा सह, मन्त्रिणा, अतः पुनः तत्र उपपदविभक्तिः तृतीया एव. मन्त्रिणा सह
कथञ्चित् नगरं, तस्य राज्यं परित्यज्य अन्यराज्यं
तत्र किञ्चन वनम्
ओ कथञ्चित् नगरं परित्यज्य किञ्चन वनं प्राप्तवान्.
हा, इति अस्तु. तत्र राजा किं प्राप्तवान्? प्राप्तवान् इत्युक्ते तत्र गतवान् इति खलु. तत्र प्राप्तवान् इति अर्थद्वयं, तत्र पुस्तकं प्राप्नोमि इति एकः अर्थः, अन्यः अर्थः तत्र तत् स्थलम् अहं गतवान् इति अर्थः.
तव तु प्रत्यय प्राप्तवान्.
हा,
किञ्चन किं योगः चन परित्यज्य त्यक्त्वा
लेप्रत्यय. समीचीनं भगिनि. हा, अपि तत्र पूर्वमपि दृष्टवन्तः, तत्र आरम्भे एव तत्र कस्मिंश्चित् इति अस्ति, कस्मिन् योगश्चित् कस्मिंश्चित् अपि कश्चन इति, तत्र किञ्चित् सन्धिकार्यं सर्वम् अस्ति इदानीं मास्तु, किन्तु तत्र किञ्चन इति तत्रापि किं योगः चन तत्र मकारस्य स्थाने च वर्गीय अनुनासिकवर्णः, अतः किञ्चन इति वनम्. अपि कथं, तत्रापि कथं योगः चित् कथञ्चित् इति भवति रूपं भवति. अपि कथञ्चित् इत्युक्ते किं? तत्र चित् चन इति प्रत्ययः प्रत्ययद्वयम् अस्ति, तत्र अर्थभेदः नास्ति, रूपभेदः एव. अर्थः इत्युक्ते तत्र पूर्णज्ञानं नास्ति इत्युक्ते तत्र कश्चन राजा, कः राजा इति न जानीमः, किन्तु कश्चन राजा आसीत्. अपि अत्र कथञ्चित् इत्युक्ते कथञ्चित् नगरं परित्यज्य, वयं न जानीमः सः कथम् एतत् कृतवान्, किन्तु कथमपि कृतवान्, कथमपि अपि इति अर्थे तत्र कथमपि सः नगरं त्यक्तवान्,
परित्यज्य.
हा, परित्यज्य अथवा त्यक्त्वा
वनं प्राप्तवान्.
वनं, तत्र किं वनं प्राप्तवान् इति न दत्तं, किञ्चन वनं सः प्राप्तवान्. तत् वनं तु प्राप्तवान्, किं वनम् इति न जानीमः सम्यक्तया, किञ्चन वनं प्राप्तवान् सः.
वनं तत्र कर्मपदम् अस्ति किं?
सत्यं भगिनि. हा, किञ्चन इति तत्र किम् इति पुनः नपुंसकलिङ्गे द्वितीया विभक्ति. समीचीनं भगिनि. हा,
कण्टकयुक्तेषु पतिषु अश्मसु वा पादरक्षां विना सञ्चलितुम् अक्षमः सः क्षुधाय पिपासया च पीडितः कस्यचित् सरसः तीरे उपविष्टवान्।
कुत्र उपविष्टवान्? उपविष्टवान् इति ततः आरम्भं कुर्मः भगिनी।
उपविष्टवान् कः? उपविष्टवान्
राजा। राजा
उपविष्टवान्। कुत्र
राजा? कथं जानीमः सः इत्युक्ते राजा इति?
पूर्वम्
पूर्वे अपि तत्र राजा इति एव कर्तृपदम् आसीत् खलु, अतः राजा पराजितः अभवत्, सः राजा मन्त्रिणा सह इति एव अस्ति, अतः अत्रापि सः इत्युक्ते राजा, सः राजा उपविष्टवान्।
सरसः तीरे उपविष्टः मान्।
सरसः इति
सरस् इति विभक्ति।
सरस् इति लिङ्गं किम्?
नपुंसकलिङ्गमस्ति।
नपुंसकलिङ्गं सरः सरः सरसि
सरांसि
सरस् इति प्रातिपदिकं, सरसः इति षष्टि एकवचनं। सरसः
तीरे उपविष्टवान्।
जानीमः वा तत्र किं सरः इति?
न महोदय, कस्यचित्
कस्यचित् सरः सरसः तीरे सः
उपविष्टवान्।
किमर्थं सः उपविष्टवान् तत्र?
सः पादरक्षं विना
न सः पीडितः
पीडितः
पीडितः आसीत्, अतः सः उपविष्टवान्। अथवा सः पीडितः, तादृशः राजा उपविष्टवान्, पीडितः राजा उपविष्टवान्। केन अथवा कया पीडितः इति
प्रश्नः। क्षुधया अपि च पिपासया पीडितः राजा कस्यचित् सरसः तीरे उपविष्टवान्।
क्षुधया इत्युक्ते?
क्षुधया इत्युक्ते किमस्ति महोदय?
न खादितवान् इति खलु।
बुभुक्षया। पिपासया इत्युक्ते किमपि न पीतवान् इति।
अतः तत्र जलस्य आवश्यकता, जलस्य अपि भोजनस्य आवश्यकता अस्ति तत्र, अतः तत्र सः पीडितः अस्ति, तादृशः राजा तत्र निस्सहायकः अस्ति, अतः तत्र सः
सरसः तीरे उपविष्टे
उपविष्टवान्। इदानीं तत्र पुनः तत्र सः इति पदम् अस्ति, तस्मात् प्राक् अक्षमः।
अक्षमः
इत्युक्ते तत्र तत्र सहनं कर्तुं न शक्नोति सः, अक्षमः। तस्मिन् तत्र क्षमता अस्ति, क्षमता इति कोऽपि जानाति वा? क्षमता इत्युक्ते किम् इति? क्षमता इत्युक्ते का इति?
पेशन्स् अस्ति वा महोदय?
न क्षमता इति पेशन्स् नास्ति। अक्षमः इति अस्ति, किन्तु क्षमता इति
सहिष्णुता वा महोदय?
सहिष्णुता अपि नास्ति तत्र,
किमपि
कार्यं
केपासिटि।
क्षमता इत्युक्ते केपासिटि। तत्र कोऽपि राजा भवितुम् अर्हति चेत् प्रश्नः भवति, तस्मिन् राज्ञी क्षमता, तादृशी क्षमता अस्ति वा? यदि नास्ति सः राजा न भवितुम् अर्हति। अथवा तत्र अधिकारी भवितुम् इच्छति चेत् अधिकारिणं पृच्छामः, अस्तु भवती एतादृशी या क्षमता आवश्यकी तादृशी क्षमता भवती अस्ति वा इति। अतः क्षमता, यस्मिन् तत्र एषः अक्षमः अस्ति इत्युक्ते तस्मिन् क्षमता नास्ति। तत्र कीदृशी क्षमता तस्मिन् नास्ति? सञ्चलितुम् अक्षमः। तत्र तस्य शक्तिः नास्ति इदानीं सञ्चलितुं। सञ्चलितुम् इत्युक्ते तत्र
चलितुं
कत्र नास्ति। तत्र विना इति अस्ति, किं विना?
पादरक्षां विना।
पादरक्षां विना सञ्चलितुम् अक्षमः। इदानीं तत्र तस्य पादरक्षम् अपि नास्ति, अतः तत्र पादरक्षं विना सः सञ्चरितुम् अक्षमः अस्ति।
वदतु महोदय, अक्षमः इत्युक्ते कथं, कीदृशः?
क्षमः, क्षमता यस्मिन् नास्ति सः अक्षमः। क्षमः क्षमः इत्युक्ते तत्र सः कर्तुं शक्नोति तावदेव. क्षमः इत्युक्ते
अशक्तः अपि
अशक्तः अशक्तः समीचीनं भगिनि. शक्ति केवलं शक्ति इति न, तत्र सञ्चलितुं शक्तिः नास्ति.
योग्यता नास्ति तत्र.
हा योग्यता इति अर्थे समीचीनं भगिनि. हा योग्यता क्षमता इत्युक्ते योग्यता, अत्र योग्यता अपि तत्र शक्तिः द्वयमपि तत्र वक्तुं शक्नुमः. समीचीनं भगिनि. हा अतः तत्र पादरक्षं विना सञ्चलितुं, सः चलितुं शक्नोति किन्तु पादरक्षं विना सञ्चलितुं तत्र तस्य तादृशी
योग्यता न,
योग्यता अथवा तत्र तादृशी तत्र तत् कार्यं कर्तुं सः न शक्नोति तत्र. अतः सः उपविष्टवान् तत्र. कुत्र तत्र सः कुत्र सञ्चरितुम् अशक्यः सः? इदानीम् आरम्भवाक्यस्य आरम्भे
कण्टकयुक्तेषु पतिषु अश्मसु वा शिलाखण्डान् अश्मसु इत्युक्ते पतिषु इत्युक्ते पतिन् शब्दः नपुंसकलिङ्ग
तत्र मार्गः इति
मार्गः. कण्टकयुक्तेषु इत्युक्ते कण्टक इत्युक्ते काटा
तत्र खण्डः शिलाखण्डः किन्तु तत्र बृहत् इति न लघुशिलाखण्डाः इति मन्ये. कण्टकयुक्तेषु इति कण्टकयुक्तेषु पतिषु तत्र तत्र
कण्टकयुक्तेषु
इति वा अहं चिन्तितवान्. क्षम्यतां क्षम्यतां हा मम दोषः.
अश्मसु इत्युक्ते शिलाखण्डम्
अक्ष सत्यं समीचीनम्. अस्तु 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 तत्र अश्मः इति वा
शिलाखण्डम्
तत्र अश्मसु इति अस्ति तत्र प्रातिपदिकं किमिति कोऽपि जानाति वा?
अश्मः
अश्मः इति प्रायश न
कर्म कर्मसु तद्वत्
कर्म अश्मन् अस्ति वा महोदय?
अश्मस् इति प्रायश अस्ति. अश्मन्
नकारान्त भवितुम् अर्हति महोदय. अश्मसु कर्मसु
अस्तु. हा एक तत्र द्रष्टव्यमस्ति, अहं न स्मरामि तत्र अश्मसु इति पदं कीदृशम् इति.
कर्म नास्ति चेत् अश्मन् एव न महोदय, अश्मसु.
हा अस्तु भगिनि, हा न स्मरामि. अस्तु कर्मणि इति स्वीकुर्मः. अस्तु
कर्म अश्म अश्मणि अश्मणि
पुल्लिङ्गम् इति दत्तमस्ति महोदय.
पुल्लिङ्गम् इति दत्तं तत्र प्रातिपदिकं किं भगिनि? अश्मन् एव
अश्मन् इति पाषाणः इति अर्थं.
हा किन्तु तत्र अश्मसु इति
आत्मसु इति आगच्छति खलु महोदय?
धन्यवादः
महोदय. तत्र अश्मा इति भवति चेत् अश्मनि इति दत्तं सम्यक् अस्ति वा न जानामि, किन्तु अश्मन् प्रातिपदिकं पुंलिङ्गे अश्मा अश्मानौ अश्मानः, किन्तु सप्तमी अश्मनि इति भवति.
तत्र एकवचने भगिनि.
अस्तु अश्मसु
बहुवचने
अश्मसु एव.
क्षम्यताम्. समीचीनम् एव. इदानीं तत्र इदानीं रूपद्वयं ज्ञातवन्तः, सप्तमी एकवचनं बहुवचनमपि समीचीनम्
अश्मनोः अश्मसु अश्मानौ अश्मानः.
हा समीचीनं, धन्यवादः भगिनि. अस्तु अतः तत्र तेषु पादरक्षं विना सः सञ्चरितुं
योग्यता
तस्य नासीत्, तत्र शक्तिः नासीत्, अतः सः अपि केवलं केवलं तत् न, सः अपि तत्र पिपासया पीडितः अपि आसीत्. अतः सः किं कृतवान्?
कस्यचित्
सरसः तीरे उपविष्टवान्.
कण्टकयुक्तेषु महोदय, कण्टक प्रातिपदिकं किम् अस्ति महोदय तत्र? कण्टकयुक्त
तत्र कण्टकयोगः युक्तः कण्टकः तत्र कण्टकः इति पुल्लिङ्गे एव नपुंसकलिङ्गे वा न स्मरामि कण्टकः इति प्रायशः अस्ति इति मन्ये कण्टकम् अकारान्तनपुंसकवनमेव अस्तु समीचीनं धन्यवादः
पुल्लिङ्गमपि अस्ति महोदय तत्र
पुल्लिङ्गमपि अस्ति वा अस्तु अस्तु अतः तत्र रूपद्वयम् अस्ति अस्तु तत्र हा तत्र तत्र कण्टकेन अथवा कण्टकैः युक्तैः इति कण्टकैः युक्तेषु कण्टकैः युक्तेषु पतिषु इति समीचीनं भगिनि अस्तु अग्रे शोभा भगिनि
आम् महोदय घोरायाम् आपदि अपि आत्मनः हितं परित्यज्य अनुगतं मन्त्रिणं दृष्ट्वा अश्रूणि मुञ्चन् सः अवदत् भोः मन्त्रिन् मम राज्यं नष्टं सर्वाः सम्पदः नष्टाः महत् कष्टम् आपतितम् इतः परम् अहं जीवितुं न इच्छामि कथमपि मरिष्यामि एव इति तत्र घोरायाम् आपदि अपि आत्मनः तत्र घोरा इति घोरायाम् अस्ति इति कृत्वा घोरा इति स्त्रीलिङ्गे घोरा इति शब्दः घोरा इति अर्थं तु किमपि बहु कष्ट क्लिष्टकरः अपि च महती क्लिष्टकरः इति महान् क्लिष्टकरः क्लेशकरः इति क्लेशकरी अस्तु इति सप्तमी एकवचने आपद् इति स्त्रीलिङ्ग दकारान्तपदम् आपदि इति सप्तमी तदपि सप्तमी घोरायाम् आपदि
तत्र आपद् इति विशेष्यम्
आपद् घोरायाम् आपदि आपद् इति विशेष्यं कीदृश
तत्र कीदृश्याम् आपदि तत्र घोरायाम् आपदि
घोरायाम् आपदि कीदृश्याम् आपदि आम् अपि आत्मनः आत्मा आत्मन् इति पदस्य आत्मनः इति तत्र षष्टि भवति किमर्थं चेत् आत्मनः हितं परित्यज्य तत्र आत्मनः हितम् इत्युक्ते स्वस्य हितं स्वस्य सुखं परित्यज्य परित्यज्य इति लेबन्तम् अस्ति इति कृत्वा हितं कर्मपदं भवति तत्र परित्यज्य इति परि उपसर्गपूर्वक त्यज्य धातुः त्यज्य अनुगतं मन्त्रिणं तत्रापि मन्त्रिणम् अनुगतं विशेषविशेषणं कीदृशं मन्त्री कीदृशं मन्त्रिणं मन्त्रिणम् इत्युक्ते अनुगतं मन्त्रिणं मन्त्रिणं तत्र मन्त्रिन् प्रातिपदिकम् अतः मन्त्रिणम् इति द्वितीयविभक्तौ भवति
हा इदानीं तत्र दृष्ट्वा इति तदनन्तरं मास्तु यदि दृष्ट्वा तावत् घोरायाम् आपदि अपि आत्मनः हितं परित्यज्य अनुगतं मन्त्रिणम् इति अस्ति तत्र
तत्र महोदय अनुगतं अनुगतं मन्त्रिणम् इत्युक्ते राजानम् अनुसृत्य आगतः मन्त्री इति
समीचीनं भगिनि हा तत्र मन्त्री किं कृतवान् तत्र
अनुसृतवान्
इति
अतः
अनुगतवान्
अनुगतवान् स्वस्य हितं परित्यज्य अनुगतवान्
हा इदानीं तत्र अगच्छत् इति तत्र अस्ति खलु तत्र भूतकाले तत्र गच्छति अगच्छत् इति हा इदानीं तत्र मन्त्री इदानीं तत्र मन्त्रिणम् इति मास्तु तत्र कर्तृपदम् इति स्थापयामः तत्र मन्त्री
मन्त्री
परित्यज्य
अस्तु प्रथम वाक्यस्य प्रथमतः वा मन्त्री घोरायाम् आपदि अपि आत्मनः हितं परित्यज्य
राजानं अनुगच्छति इति
राजानाम् अनुगच्छति अस्तु
अनुगच्छति इति लट् लकारे किन्तु यदि तत्र लङ्लकाररूपम् इच्छामः तत्र किं भवति
अनुगच्छति इति अगच्छत् अनुगच्छ अनु क्षमताम् अगच्छत् अन्वगच्छत्
हा अन्वगच्छत्
अन्वगच्छत्
अन्वगच्छत् समीचीनं भगिनि हा तावदेव तत्र अनुगतं रा मन्त्रिणम् इति स्थाने तत्र मन्त्रिणम् इति स्थाने सः मन्त्री अन्वगच्छत्
अन्वगच्छत्
अन्वगच्छत् हा इदानीं हा तादृशं मन्त्रिणं
दृष्ट्वा अश्रूणि मुञ्चन् सः अवदत् तत्र दृष्ट्वा इति त्वान्तपदम् अश्रूणि तत्र अश्रु इति प्रातिपदिकं नपुंसकलिङ्गे अस्ति अपि च अश्रु इति अपि प्रथमविभक्तौ अपि अस्ति अतः अत्र अश्रूणि इति नपुंसकलिङ्ग बहुवचनं
विभक्ति अत्र
तत्र प्रथमविभक्ति बहुवचने अश्रूणि मुञ्चन्
न न किन्तु तत्र खलु सः सः इत्युक्ते राजा सः राजा अवदत् इदानीं तत्र मुञ्चन् इति रूपं कीदृशं
मुञ्चन् इति शत्रन्तम् इति
शत्रन्तं समीचीनं भगिनि अतः तत्र मुञ्चन् इति लिङ्गं किं तत्र
मुञ्चन् इति पुंलिङ्गे भवति
पुंलिङ्गे अस्ति हा अतः तत्र विशेषणम् अस्ति राजा इति पदस्य खलु
राजा
हा सः राजा
सः राजा सः राजा कीदृश इत्युक्ते अश्रूणि मुञ्चन्
मुञ्चन् अतः तत्र मुञ्चन् इति क्रियापदस्य कर्मपदमस्ति तत्र किं मुञ्चन् अश्रूणि मुञ्चन्
अश्रूणि मुञ्चन् कर्मपदम्
अश्रूणि मुञ्चन् अपि तस्मिन् एव समये केवलं तत्र अश्रूणि मुञ्चन् इति नास्ति अन्यत् कार्यमपि अपेक्षितम् अस्ति यतोहि तत्र शत्रन्तपदम् अतः क्रियाद्वयम् अस्ति अपि
अश्रूणि मुञ्चन् अपि च अवदत्
अतः तत्र वदति अपि तत्र अश्रूणि तत्र
कृत्वा अवदति
किं भगिनि
अश्रुपूरितः
अश्रुपूरितः
भूत्वा अथवा अश्रुपूरितः भूतः इति अपि भवति वा महोदय भूतः वदति
अस्तु सः वदति समीचीनं किन्तु तत्र यदि भूत्वा इति भवति चेत् किं तत्र सत्यमेव क्लेशः नास्ति अर्थे किन्तु व्याकरणरीत्या तत्र भूत्वा इति त्वान्तं यदि भवति तत्र किम् अस्ति
कर्मकार्यं
प्रथमकार्यस्य अनन्तरमेव द्वितीयकार्यम् इति भवति किन्तु अत्र ते वदन्ति तत्र एकस्मिन् समये द्वयम् एकस्मिन् समये तावदेव किन्तु अर्थः तु समानः एव तत्र सः तत्र अश्रूणि मुञ्चन् इति स्थाने तत्र रोदिति इति उपयुज्य तत्र रोदिति इति पदस्य शत्रु
रुदन्
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 इति
सः अवदत् भोः मन्त्रिन् सम्बोधने मम राज्यं नष्टं तत्र किं राज्यं नष्टं द्वे अपि नष्टं राज्यं
मम राज्यं कीदृशम् अस्ति इदानीं तत्र
नष्टम् अस्ति सर्वाः सम्पदः नष्टाः तत्र सर्वाः स्त्रीलिङ्गे बहुवचने अस्ति सम्पद् इति स्त्रीलिङ्गे सम्पद् इति प्रातिपदिकं सम्पदः इति बहुवचने स्त्रीलिङ्गे सर्वाः सम्पदः नष्टाः तत्रापि विशेषविशेषणं नष्टाः सम्पदः इति
तत्र एकवचने किं भवति तत्र केवलं तत्र सर्वः मास्तु किन्तु तत्र सम्पदः नष्टाः इति
सम्पद् नष्टः
नष्टः
इति प्रातिपदिकम् ओ नष्टाः स्त्रीलिङ्गे क्षमतां
स्त्रीलिङ्गे अस्ति अतः सम्पद् नष्टः इति अग्रे
महत् कष्टम् आपतितं तत्र कष्टम् आपतितं कीदृशं कष्टम् इत्युक्ते तत्रापि विशेष्य विशेषणं महत् कष्टम्
महत् कष्टं तत्र साधारणकष्टम् इति न महत् कष्टम्
तत्र महान् कष्टः इति भवति वा महोदय कष्टं पुंलिङ्गे अस्ति वा कष्टः इति
कष्टम् इति
कष्टम् अथवा नपुंसके अस्ति
मन्ये भगिनि
कष्टम् अस्तु अस्तु महत् कष्टम् आपतितं किन्तु तत्र द्वितीया एव भवति आपतितं कष्टम् आपतितं
न न द्वितीया किमर्थम्
आपतितं किम् आपतितं तत्र आपतितं प्रथमा भवति अस्तु
तत्र क्रियापदं किम् अस्ति
पतितम् इति आपतितम् इति एव न न अस्ति अस्ति इति अस्ति
समीचीनम् तत्र
अतः तत्र कर्मपदं
कर्मक
अस्ति अस्तु इतः परम् इतः परम् इतः परम् अहं जीवितुं न इच्छामि
तत्र इदानीं तत्र अग्रे जीवितुं न इच्छामि
न इष्टवान् तत्र अस्तु इतः परम् इति तत्र सन्धि अस्ति तत्र तु ककपपेतु विसर्ग तत्र इतः इति भवितुम् अर्हति विसर्गस्य उच्चारणम् इतः परमपि अस्ति अथवा विकल्पेन इतः परम् अपि अस्ति
समीचीनं
अहं जीवितुं न इच्छामि तुमुन् जीवितुम् इति तुमुन् अस्ति न इच्छामि इति वदति कथम् अपि मरिष्यामि एव इति कथमपि तत्र मरिष्यामि इति मृधातु
कथम् प्राप्स्यामि इति न जानामि किन्तु कथमपि
इत्युक्ते सः निश्चितः अस्ति कथमपि करोमि
एव तत्र सन्देहः नास्ति एतदेव अहं कर्तुम् इच्छामि तत्र विकल्पः एव नास्ति तत्र तदेव अहं कर्तुम् इच्छामि इति सः उक्तवान् तत्र राजा एतत् उक्तवान् तत्र तस्य हितमेव चिन्तयित्वा सः तत्र एतत् सर्वं कृतवान् किन्तु मन्त्री तत्र
स्वस्य हितं अलक्ष्यं
कृत्वा
राज्ञः हितम् एव अपेक्ष्य
राज्ञः तत्र राज्ञः हितस्य एव चिन्तनं सर्वदा कुर्वन् आसीत् सः अतः एव तत्र सः श्रद्धावान् इत्युक्ते राज्ञी अथवा तत्र राज्ये एव तस्य श्रद्धा आसीत्
न तु केवलं राज्ञी किन्तु राज्ये एव
राज्ये
जनानां संरक्षणे अपि
तस्य
आसीत् प्रजानां
संरक्षणे अथवा प्रजानां हिते तस्य श्रद्धा आसीत् मन्त्रिणः श्रद्धा आसीत् समीचीनं भगिनि धन्यवादः अस्तु
धन्यवादः
अग्रे तत्र
एकः प्रश्नः महोदय अत्र कष्टम् आपतितम् इत्यस्मिन् वाक्ये कष्टम् इति कर्मपदम् अस्ति वा
न भगिनि तत्र आपतितम् इति अस्ति आपतितम् इति तत्र विशेषणम् अस्ति भगिनि तत्र कीदृशं कष्टम् आपतितं कष्टम् इति तत्र पठितं पुस्तकम् एतत् पुस्तकं मया पठितं किन्तु तत्र पठितम् इति अत्र अस्ति तत्र पठितं किम् अस्ति एतत् पुस्तकम् अस्ति एतत् पुस्तकं मया पठितं पुस्तकम् अस्ति तत्र अस्ति इति क्रियापदं पुस्तकम् इति किं भवति कर्तृपदं खलु इदानीं तत्र पठितम् इति अस्ति तत्र पठितम् इति किं भवति तत्र
पठितम् इति विशेषणं भवति
विशेषणमेव भवति तत्र कीदृशं पुस्तकं पठितं पुस्तकम् इदानीं तत्र केन इति अतः तत्र अन्यत् किमपि अस्ति किन्तु पठितं पुस्तकम् अत्र अस्ति आपतितं कष्टम्
तत्र
तत्र भगिनि तत्र आपतितम् इत्युक्ते तत्र कोऽपि तत्र तत्र शिलाखण्डम् अस्ति शिलाखण्डम् अस्ति शिलाखण्डम् इदानीं तत्र जले कोऽपि पातयति इदानीं किं वदामः शिलाखण्डं तेन पातितं पातितं शिलाखण्डम् इति अस्तु तत्र सः अस्ति सः तत्र तत्र शिलाखण्डं क्षिपति वा अथवा तत्र स्थापयति किन्तु तत्र पातितं शिलाखण्डम् इति अस्ति किन्तु तेन इति भवति तत्र कर्मणि प्रयोगे खलु हा किन्तु अत्र किम् अस्ति तत्र कर्मणि प्रयोगे तत्र अत्र न जानीमः कः एतत् कष्टं तत्र आनीतवान् इति अतः तत्र किं वदामः केवलं महत् कष्टम् आपतितम् इति अहं चिन्तयामि भवती इष्टवती तत्र कर्मणि इव अस्ति तत्र कर्मपदम् इव अस्ति इति सत्यं किन्तु तत्र किन्तु तत्र वाक्ये तत्र साक्षात् तत्र अस्ति इति क्रियापदम् अस्ति किम् अस्ति कष्टम् अस्ति कीदृशं कष्टम् अस्ति महत् कष्टम् अस्ति आपतितं कष्टम् अस्ति तत्र केन तत्र पातितं कष्टम् इति तत् न जानीमः
न महोदय फलम् अस्ति फलं वृक्षात् पतति फलं पतति एतस्मिन् वाक्ये फलम् इत्युक्ते फलं कर्तृपदं भवति फलं पतति अत्र कर्मपदं नास्ति कर्मपदस्य आवश्यकता एव नास्ति
अस्तु इदानीम् अस्तु फलम् अस्ति फलं पतति इदानीं यत् फलं तत्र भूमौ अस्ति तत् फलं कीदृशं फलं पतितं फलं
पतितं फलं
तावदेव अत्रापि तत्र तत्र तु अन्यरीत्या तत्र वयं वक्तुं शक्नुमः वृक्षात् पतितं फलं तत् खलु अत्र न जानीमः कुतः एतत् कष्टम् आगतम् इति अतः महत् कष्टम् आपतितम् इति
अस्तु महोदय
समीचीनं वा भगिनि
अतः
आपतितम् अतः अस्तु
धन्यवादः
धन्यवादः भगिनि अस्तु अग्रे अन्यप्रश्नः अस्तु अस्तु तत्र सुजाता भगिनी इदानीं पठति वा अग्रे
कष्टं दिनं विलपन्तं राजानं दृष्ट्वा मन्त्री तं सान्त्वयन् उक्तवान् राजन्
तत्र अस्तु वदतु तत्र पूर्वं पूर्णं वाक्यं पठतु एकवारं
राजन् आलं दुःखेन
अलं दुःखेन
अलं दुःखेन राज्यं विनष्टम् इति भवान् मा चिन्तयतु
इदानीं तत्र सः किं वदति राजन्
राजन् दुःखेन अलं
तत्र वयं जानीमः तत्र अलम् अस्ति चेत् तत्र किं भवति अलम् अनन्तरं पदं तृतीया अतः अलं दुःखेन इदानीं दुःखं दुःखं मास्तु दुःखं अलम् अलम् एतावत् भवान् दुःखितः आसीत् इदानीं मास्तु तत्र दुःखं त्यजतु मास्तु इदानीं दुःखं राज्यं
विनष्टम् इति भवान् मा चिन्तयतु
अतः राज्यं नष्टं राज्यं नष्टम् इत्युक्ते किं तत्र राज्यं तु अस्ति किन्तु तस्य राज्यं नास्ति इति एव तत्र प्रश्नः खलु. अन्यस्य राज्यम् इति एव प्रश्नः. अतः राज्यं विनष्टं, तत्र मम भवतः राज्यं नास्ति इति मा चिन्तयतु, भवान् मा चिन्तयतु इति वदति. हा, इदानीं तत्र तस्मात् प्राक् तत्र मन्त्री इति अस्ति, मन्त्री उक्तवान्, सान्त्वयन् इति. सान्त्वयन् इति पदं किम् अस्ति? तत्र पश्यन् इति, तत्र वयं वदामः शत्रन्तरूपम् इति. पूर्वमपि दृष्टवन्तः खलु तत्र मुञ्चन् इति आसीत्. हा, मुञ्चन् अवदत्, तत्र मुञ्चति वदति, अत्र वदति सान्त्वयन्, सान्त्वयति इति प्रायशः, अथवा सान्त्वयते इति न जानामि, किन्तु तत्र सान्त्वयन् इति शत्रन्तरूपं. तं सान्त्वयन्, तत्र मन्त्री इति पदस्य विशेषणं भवति सान्त्वयन्. सान्त्वयन् तम् इत्युक्ते कम्?
राजन्.
हा, राजानं, राजानं, तत्र राजानं सान्त्वयन्, तस्य राज्ञः, तत्र महाराजा इति स्वीकुर्मः, महाराजस्य समाधानं कर्तुं सः वदति, सः किमपि वदति, तस्य समाधानं कर्तुं. महाराजा अस्ति चेत् महाराजस्य इति भवति, किन्तु राजा अस्ति चेत् तत्र रूपं किं भवति? राज्ञः इति. राज्ञः समाधानं कर्तुं सः वदति. अतः सान्त्वयन् उक्तवान्. अतः इदानीं तत्र मन्त्री उक्तवान् तस्मात् प्राक् अस्ति दृष्ट्वा इति. सः कः दृष्ट्वा? मन्त्री दृष्ट्वा, मन्त्री दृष्ट्वा, किं दृष्ट्वा अथवा कं दृष्ट्वा सः उक्तवान्? राजानं दृष्ट्वा, राजानं दृष्ट्वा, तत्र राजा अस्ति, तं राजानं दृष्ट्वा सः मन्त्री उक्तवान्. सः राजा कीदृशः अस्ति? सः राजा तत्र विशेषणम् अस्ति वा राजा इति? विलपन्तं राजानं, दीनं विलपन्तं राजानं, तत्र दीनं राजानं, किन्तु द्वितीयविभक्तिः अस्ति यतोहि तत्र दृष्ट्वा इति अस्ति. सः दृष्ट्वा, वृक्षः अस्ति, वृक्षं दृष्ट्वा इति भवति. सः राजानं दृष्ट्वा, किन्तु राजा प्रथमविभक्तिरूपं राजा अस्ति चेत् दीनं किं भवति? दीनः, दीनः राजा, दीनः राजा अस्ति. अपि विलपन्तम् इति अस्ति, तत्र विलपन्तम् इति द्वितीयविभक्तिरूपम् अस्ति, प्रथमविभक्तिरूपं किम् अस्ति? विलपन्, हा, समीचीनं. दीनः विलपन् राजा यः अस्ति, तं दीनं विलपन्तं राजानं दृष्ट्वा मन्त्री एतत् सर्वं वदति. अस्तु, अग्रे
धीमन्तः गते शोकं न कुर्वन्ति.
धीमन्तः इत्युक्ते प्रातिपदिकं प्रथमविभक्ति, वचनं किं?
बहुवचनं.
हा, धीमन्तः क्रियापदं किमस्ति? किमस्ति क्रियापदं?
कुर्वन्ति.
धीमन्तः कुर्वन्ति अथवा न कुर्वन्ति, किं न कुर्वन्ति?
शोकं
न कुर्वन्ति. धीमन्तः किं न कुर्वन्ति? शोकं न कुर्वन्ति. तत्र शोकम् इति अस्ति चेत् प्रश्नः भवति, तत्र कस्मिन् विषये शोकं न कुर्वन्ति ते धीमन्तः?
गते.
हा, गते, तत्र यत् अभवत्, यत् अभवत् तत् गतं, तत्र गतम्. इदानीं तत्र दशवर्षात् पूर्वं किमपि अभवत् इति तस्मिन् विषये चिन्ता मास्तु, तत् गतम् इति. गतम् इति अस्ति, तत् गतं, किन्तु तस्मिन् विषये, तत्र गते विषये अथवा गते शोकं न कुर्वन्ति. गते इति स्थाने गते विषये शोकं न कुर्वन्ति, न कुर्वन्ति के धीमन्तः न कुर्वन्ति. अग्रे
ते वर्तमानम् एव चिन्तयन्ति.
हा, ते सर्वदा इदानीम् इदानीम् किं करणीयम् इति एव तस्मिन् विषये एव तेषां ध्यानं भवति. तत्र तत्र अवधानं कुत्र अस्ति, तत्र इदानीं किं करणीयम् इति तस्मिन् एव विषये तेषां चिन्तनम् अस्ति, अथवा वर्तमानमेव ते ते धीमन्तः चिन्तयन्ति. अग्रे
परिश्रमेण कर्मणा ते अभीष्टं साधयन्ति.
तत्र ते साधयन्ति इत्युक्ते के साधयन्ति? ते इत्युक्ते के?
धीमन्तः.
ते धीमन्तः, पूर्वमपि ते इति आसीत्, धीमन्तः धीमन्तः ते धीमन्तः साधयन्ति. साधयन्ति इत्युक्ते प्राप्नुवन्ति, किं प्राप्नुवन्ति, किं साधयन्ति, किं साधयन्ति, न कर्मणा इति अस्ति इदानीं मास्तु, तत्र ते अभीष्टम्, अभीष्टम् इत्युक्ते यत् इच्छन्ति, यत् इच्छन्ति तत् अभीष्टम् अस्ति, इदानीं ते अभीष्टं साधयन्ति, प्राप्नुवन्ति, अभीष्टं यत् तत् प्राप्नुवन्ति अथवा साधयन्ति. तत्र केन मार्गेण ते साधयन्ति एतत् सर्वम्, अभीष्टं साधयन्ति ते?
परिश्रमेण.
परिश्रमेण इत्युक्ते तत्र महता परिश्रमेण वा अथवा परिश्रमेण अथवा कर्मणा, कर्मणा साधयन्ति, परिश्रमेण कर्मणा साधयन्ति, साधयन्ति. समीचीनं भगिनि. अग्रे
अतः दुःखार्थः मा भवतु.
अतः दुःखितः मा भवतु, मा भवतु, दुःखं मास्तु.
विनष्टस्य राज्यस्य पुनः प्राप्तये उपायं चिन्तयाव.
तत्र किं चिन्तयाव?
राज्यस्य पुनः
प्राप्तये चिन्तयाव. तत्र चिन्तय, तत्र उपायं किं चिन्तयाव? उपायं चिन्तयाव. उपायम् इति किं विभक्तिः का तत्र?
उपायं द्वितीया.
कर्मपदं किं चिन्तयाव? उपायं चिन्तयाव. तत्र चिन्तयाव इति अस्ति, तत्र कर्तृपदं किम् अस्ति?
राज्यस्य
न चिन्तयाव इति अस्ति, तत्र
चिन्तयाव मन्त्री राज.
सत्यं सत्यं, किन्तु तत्र कर्तृपदं किम् अस्ति? तत्र पठामि अस्ति चेत् तत्र कर्तृपदं किम् अस्ति? पठामि अस्ति चेत् कर्तृपदं किम् अस्ति? पठामि इति अस्ति, पठामि इति अस्ति, अहम् इति एव, अहमेव कर्तृपदम् इति. तत्र इदानीं पठावः अस्ति चेत् तत्र कर्तृपदं किं भवति? आवां पठावः, पठामः अस्ति चेत्
वयं.
इदानीम् अत्र किम् अस्ति? चिन्तयाव इति अस्ति, अतः किं कर्तृपदं किम् अस्ति?
चिन्तयाव
आवाम्. आवाम् इत्युक्ते तत्र मन्त्री वदति राजानं दृष्ट्वा, भवान् अस्ति, अहम् अस्मि, आमां चिन्तयाव. किं चिन्तयाव? उपायं चिन्तयाव. तत्र किं कर्तुं, किं कर्तुम् उपायं चिन्तयाव? राज्यं, राज्यं यत् विनष्टं राज्यम् अस्ति, यत् राज्यम् इदानीम् अस्माकं न भवतः नास्ति राज्यं, तस्य राज्यस्य पुनः प्राप्तये इति अस्ति, प्राप्तये इति विभक्ति का तत्र?
प्राप्तये सप्तमी
न
हा
चतुर्थी प्राप्तिः इति अस्ति, प्राप्तिः राज्यस्य प्राप्तिः पुनः प्राप्तिः इच्छामः अतः पुनः प्राप्तिम् इच्छामः अतः प्राप्तये इति प्राप्तये वयम् उपायं चिन्तयाव तत्र चिन्तयावः इति नास्ति पठावः तत्र पठामि पठावः पठामः किन्तु अत्र चिन्तयावः इति नास्ति चिन्तयाव इति अस्ति लकारः कः कोऽपि जानाति वा चिन्तयानि चिन्तयाव चिन्तयाम इति समीचीनं भगिनि अस्तु उपायं चिन्तयाव इति तत्र प्रार्थना भवान् तत्र सर्वं त्यजतु तत्र दुःखं सर्वं त्यजतु राज्यं नष्टं विनष्टम् इति मा चिन्तयतु धीमन्तः किं कुर्वन्ति यत् अस्तु तत्र राज्यं गतम् इदानीम् अहं न जीवितुम् इच्छामि तादृशं चिन्तनं ते न कुर्वन्ति तत्र इदानीं किं करणीयम् इति तस्मिन् विषये एव चिन्तयन्ति अतः राज्यस्य पुनप्राप्तिः इति विषये चिन्तनं कुर्मः हा प्राप्तये तस्य राज्यस्य प्राप्तये पुनप्राप्तये उपायं वयं वयं न आवां चिन्तयाम इति सः मन्त्री राजानम् उद्दिश्य वदति वदति समीचीनं भगिनि अस्तु अग्रे मधु महोदय
आं महोदय यः अस्माकं शत्रुः राजा अस्ति तस्यापि वैरिणः वर्तन्ते तैः अग्रिमे पठामः
तत्र पठतु महोदय तत्र करोतु इति तावत्पर्यन्तं परिच्छेदं
वर्तन् ते वैरिभिः सख्यं विधाय पुनरपि युद्धं करिष्यामः नष्टं राज्या पुनः न लप्स्यते इति कः अस्ति कः अत्र निश्चयः भगवतः कृपया भवान् राज्यं सम्पदः यशश्च विना विलम्बं प्राप्स्यति चिन्तां मा करोतु इति
चिन्तां मा करोतु इति सः वदति तत्र समाधानं तस्य राज्ञः समाधानं करोति इदानीं तत्र सः कः सः किं वदति यः अस्माकं शत्रुः
राजा अस्ति
राजा अस्ति तम् उद्दिश्य मन्त्री वदति किं वदति यः अस्माकं शत्रुः अस्ति शत्रु कः शत्रुः यः तत्र युद्धार्थम् आगतवान् खलु तत्र शत्रुः आगतवान् पूर्वं खलु सः शत्रुः अस्ति अस्माकं शत्रुः सः अस्ति सः शत्रुः अपि राजा अस्ति खलु सः अपि राजा अस्ति खलु शत्रु वैरिणः वर्तन्ते इत्युक्ते किम्
वैरिणः
वैरी इति वैरी वैरिणौ वैरिणः इति वैरी इत्युक्ते जानन्ति खलु महोदय वैरी इत्युक्ते शत्रु अथवा रिपु इति
शत्रु
एव केवलं तत्र वैरी यतोहि तत्र शत्रु द्विवारम् अस्ति चेत् तत्र किं भवति क्लेशः भवति इति कृत्वा तत्र तस्यापि वैरिणः सन्ति नाम तत्र तस्य यः राजा अस्माकं शत्रुः अस्ति किन्तु इदानीं सः अस्माकं शत्रुः इति तत्र तत् मास्तु तस्य चिन्तनं न कुर्मः सः राजा अस्ति तस्य राज्ञः अपि अन्ये वैरिणः अन्ये शत्रवः सन्ति खलु
सन्ति
वर्तन्ते इदानीं
तैः वैरिभिः सख्यं विधाय पुनरपि युद्धं करिष्यामः।
वयं किं कुर्मः? तैः वैरिभिः सख्यम् इत्युक्ते मित्रता स्थापयामः इति तत्र तादृशी परिस्थितिः स्थापयामः तत्र तैः वैरिभिः। कैः वैरिभिः? तत्र अस्माकं शत्रुः अस्ति, शत्रोः अस्माकं शत्रुः यः अस्ति तस्य शत्रोः राज्ञः वैरिणः सन्ति तैः वैरिभिः विधाय कुर्मः। तत्र सख्यं कुर्मः, तत्र सख्यं स्थापयामः विधाय लेबन्तं कृत्वा सख्यं कृत्वा वयं किं कुर्मः?
पुनः युद्धं करिष्यामः
यदि तस्मिन् समये किं भवति? यदि तस्मिन् समये वयं युद्धं करिष्यामः केवलम् एकाकी युद्धं न करिष्यामः, किन्तु ते वैरिणः ते अपि आगच्छन्ति अस्माकं साहाय्यं कर्तुं, खलु? ते अपि आगच्छन्ति, अतः वयं युद्धं पुनरपि युद्धं कर्तुं तत्र शक्नुमः। अग्रे
नष्टं राज्यं पुनः न लप्स्यते इति कः अत्र निश्चयः?
तत्र इदानीं राज्यं कृतं नास्ति, अस्माकं राज्यं नास्ति, भवतः राज्यं नास्ति, किन्तु तत् पुनः भवान् तस्य राज्यं न प्राप्नोति इति निश्चयः कुत्र अस्ति, खलु? न कोऽपि जानाति तत्र किमर्थं तत्र भवान् न प्राप्तुं शक्नोति इति, अतः लप्स्यते तत्र लभते इति लभते लप्स्यते तत्र पुनः न लप्स्यते तत्र राज्यं न लभते अथवा न लप्स्यते इति तत्र कः निश्चयः अस्ति? न निश्चयः कोऽपि निश्चितं नास्ति तत्र केवलं तत्र यः शत्रुः अस्ति तस्यैव राज्यम् इति तत्र निश्चयः नास्ति, अतः वयं युद्धं कर्तुं शक्नुमः युद्धं कुर्मः। अग्रे
भगवतः कृपया भवान् राज्यं सम्पदः यशश्च विना विलम्बं प्राप्स्यति।
यशश्च विना इति मास्तु, तत्र यशश्च तदनन्तरं विना विलम्बं प्राप्स्यति इति
विना विलम्बं प्राप्स्यति
यशश्च विना इति मास्तु, यतोहि यशः आवश्यकम् अस्ति तत्र विना विलम्बं इत्युक्ते तत्र विलम्बेन इति भवान् प्राप्स्यति इति न, तत्र शीघ्रमेव भवान् तत्र प्राप्स्यति तत्र प्राप्स्यति प्राप्नोति इति पदस्य भविष्यत्कालरूपं प्राप्स्यति। किं प्राप्स्यति? राज्यं प्राप्स्यति
सम्पदः
अपि प्राप्स्यति। सम्पदः इति विभक्ति का तत्र?
सम्पदः प्रथमा विभक्ति बहुवचनम्
अपि अस्ति, किन्तु अत्र प्राप्स्यति इति अस्ति, तत्र भवान् प्राप्स्यति, भवान् किं प्राप्स्यति? राज्यं प्राप्स्यति, सम्पदः अपि प्राप्स्यति, अतः कर्मपदमस्ति तत्र द्वितीयविभक्ति। सम्पद् इति तत्र सम्पदौ सम्पदः अतः तत्र समानरूपं, किन्तु विभक्ति तु अत्र द्वितीया। सम्पदः प्राप्स्यति, यशः तु नपुंसकलिङ्गपदं यशस्, अतः यशः इति समानरूपं, किन्तु अत्र द्वितीयविभक्ति कर्मपदमस्ति। किं प्राप्स्यति भवान्? यशः प्राप्स्यति, एतत् सर्वं भवान् प्राप्स्यति विना विलम्बम् इत्युक्ते तत्र शीघ्रतया प्राप्स्यति। कथं प्राप्स्यति? कृपया, कस्य कृपया?
राज्यं कृपया,
कस्य कृपया भवान् प्राप्स्यति? कस्य कृपया प्रथमपदं भगवतः कृपया,
भगवतः
भगवान् अस्ति, तस्य कृपया भगवतः कृपया भवान् एतत् सर्वं विना विलम्बं प्राप्स्यति. अतः किम्? अतः
चिन्तां मा करोतु,
चिन्तां मा करोतु इति सः वदति. समीचीनं महोदय, अस्तु, धन्यवादः.
अत्र यशः
तत्र यशः योगः च यशश्च इति भवति तत्र.
अस्तु,
यशः योगः च यशश्च इति भवति. अस्तु, केवलम् एकनिमिषं स्वीकृत्य अन्तिमपरिच्छेदमपि समापयामः. तत्र श्रीप्रिया भगिनी अन्तिमपरिच्छेदं किञ्चित् पठित्वा वदति.
मन्त्रिणः सान्त्वनवचसा तुष्टः राजा दुःखं परित्यज्य उपतिष्ठत्. अन्यैः राजभिः सख्यं विधाय पुनरपि युद्धं कृतवान्. स्वीयं राज्यं प्रतिप्राप्तवान्. साहाय्यकृद्भ्यः राजभ्यः प्रभूतम् उपायनादिकं दत्त्वा तान् तोषितवान्. मन्त्रिणा सह सुखेन चिरं राज्यपालनं च कृतवान्. मन्त्रिणः वचनम् अनुसृत्य राजा यः शत्रोः वैरिणः सन्ति ते तैः सह मिलित्वा युद्धं पुनः शत्रोः उपरि युद्धं कृतवान्. विजयमपि प्राप्तवान्. अतः विजयस्य अनन्तरं सः ये तस्य साहाय्यं कृतवन्तः तेभ्यः पुरस्कारम् इत्यादीनि दत्त्वा तानपि सन्तोषं दत्तवान्. तेभ्यः अपि सन्तोषं दत्तवान्. अनन्तरं मन्त्रिणा सह सुखेन सः पुनः राज्यपालनं प्रति गतवान्.
समीचीनं भगिनी, धन्यवादः. तावदेव, धन्यवादः. अस्तु, तत्र मधुमहोदय भवानेव अन्ते तत्र शान्तिमन्त्रं वदति वा महोदय? शान्तिमन्त्रं वदति
वा? ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. धन्यवादः महोदय.